एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण अध्यादेशानां प्रतिस्थापनाय आनीतानि सम्पत् शुद्धिकरणेन सहितानि विभिन्नानि चत्वारि विधेयकानि प्रतिनिधिसभया पारितीकृतानि सन्ति। सभायाः ह्यस्तनोपवेशेन सार्वजनिक क्रयण सम्बद्धम् एतद् विक्रमवर्षीयं द्वितीय संशोधन विधेयकं बहुमतेन पारितीकृतमस्ति। उपवेशे प्रधानमन्त्रिणः बालेन्द्र सहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतमेन विधेयकमाधृत्य विमृश्यतामिति निगद्य विधेयकमिदं प्रस्तुतमासीत्। उपवेशेन सम्पत् शुद्धिकरण निवारण सम्बद्धम् एतद् विक्रमवर्षीयं तृतीय संशोधन विधेयकं बहुमतेन पारितीकृतमस्ति। एवमेव उपवेशे भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रिणा प्रतिभा रावल इत्यनया प्रस्तुतं सहकारी सम्बद्धम् एतद् विक्रमवर्षीय विधेयकं बहुमतेन पारितीकृतं वर्तते। स्वास्थ्य विज्ञान प्रतिष्ठान सम्बद्धान् कतिपयान् नेपालाधिनियमान् संशोधयितुं निर्मितम् एतद् विक्रमवर्षीयं विधेयकं पारितीकृतमस्ति। उपवेशे सम्बद्धै मन्त्रिभिः सांसदैः उत्थापितानां प्रश्नानाम् उत्तरं दत्तमासीत्। प्रतिनिधिसभायाः अपरोपवेशः आषाढमासस्य द्वाविंशे दिवसे सोमवासरे पूर्वाह्नस्य एकादशवादने वस्ता। शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः निगदति फिफा इति अन्तर्राष्ट्रिय पादकन्दुक महासंघेन अखिल नेपाल पादकन्दुक संघाय विहितं प्रतिबन्धनम् उन्मोक्तुं फिफा इति अन्तर्राष्ट्रिय पादकन्दुक संघस्य प्रतिनिधिभिस्सह विमर्शनस्य प्रयासः जायमानोऽस्ति। मन्त्री परिषदः ह्यस्तनोपवेशस्य निर्णयान् सार्वजनिक कुर्वन् मन्त्री पोखरेलः संचारकर्मिणां जिज्ञासायां समस्यायाः समाधानाय अन्तर्राष्ट्रिय पादकन्दुक महासंघस्य एशिया पादकन्दुक महासंघस्य च पदाधिकारिणः वार्तायाम् आहूताः सन्तीति असूचयत्। मन्त्री परिषद उपवेशेन गोर्खापत्र संस्थानस्य महाप्रबन्धक पदे कैलाली जनपदस्य हिक्मत बहादुर रावलः नियुक्तोऽस्ति। उपवेशे विशिष्ट संरचना संचालन व्यवस्थापन विकास समितेः कार्यकारी निर्देशक पदे धनकुटा जनपदस्य धर्मराज खड्का नियुक्तोऽस्ति। सुरक्षण मुद्रण कोषस्य कार्यकारी निर्देशक पदे मोरङ जनपदस्य देवराज ढुङ्गाना नियुक्तोऽस्ति च सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः असूचयत्। सर्वकारेण एतद् विक्रमवर्षीयां शिक्षा सम्बद्धां दशम संशोधन नियमावलीम् एतद् विक्रमवर्षीयां राष्ट्रिय सदाचार नीतिम् एतद् विक्रमवर्षीयां राष्ट्रिय विज्ञापन नीतिम् च स्वीकर्तुम् निर्णीतमस्तीति मन्त्री पोखरेलः असूचयत्। राष्ट्रियसभायाः ह्यस्तनोपवेशे एतद् विक्रमवर्षीयं विनियोजन विधेयकमाधृत्य मन्त्रालयगतानां शीर्षकाणां विषये विमृष्टमस्ति। मन्त्रालयगत विनियोजन विधेयकमाधृत्य सम्भूते विमर्शने सांसदः वृत्त्युपार्जनस्य सर्जनं विपन्नतायाः न्यूनीकरणम् औद्योगिक पुनरुत्थानं कृष्युत्पादन वर्धनं प्रतिभा पलायन निवारणं च कर्तुम् आयव्ययकेन केन्द्रितेन भाव्यम् इत्यत्र बलं दत्तवन्तः। सांसदः पर्यटन प्रवर्धनस्य वातावरण संरक्षणस्य शारीरिकस्य मानसस्य च स्वास्थ्यस्य च विषयेभ्य प्राथमिकतां प्रदातुं परामृष्टवन्तः। राष्ट्रियसभायाः अपरोपवेशः अद्य दिवासपादैकवादने वस्ता। कर्णाली राजमार्गस्य दैलेख मार्गे कर्णाली नद्यां निमग्नस्य यात्रीवाहक फोर्स बसयानस्य उद्धार कार्ये काठिन्यं सम्भूतमस्ति। नद्यां जलस्तर वृद्धे कारणात् यानं जले विलीनम् इत्यतः उद्धार कार्ये जटिलता उत्पन्नता अस्ति इति दैलेख जनपद प्रहरी कार्यालयस्य प्रहरी प्रमुख श्रवण कुमार वीक असूचयत्। सुर्खेत जनपदात् कालीकोट जनपदं प्रति प्रस्थितं बसयानं ह्य पूर्वाह्नस्य सार्धैकादशवादने चामुण्डा बिन्द्रा सैनी नगरपालिकायाः सप्तम ओडा क्षेत्रस्य सांगेतडावर्तिन्यां कर्णाली नद्यां पतितमासीत्। ततः भृगौ पतितस्य पुरुषस्य शवः उद्धृतोऽस्ति। एतस्य सत्यापनं सम्भूतं नास्ति। यातायात व्यवस्था विभागेन पेट्रोलेन्धनस्य मूल्ये न्यूनीकरणेन सहैव प्रदेशान्तरेष् सार्वजनिकानां वस्तुवाहकानां च यातायात साधनानां भाटके प्रतिशतं द्वाभ्याम् अंकै न्यूनीकृतमस्ति। विभागेन ह्य सूचनां प्रकाश्य एतत्पूर्वं भाटक समायोजन समये डीजेलेन्धनस्य सामान्य मूल्यं पञ्चत्रिंशदुत्तर शतद्वयं रूप्यकाणि त्र्यशीति पणकानि च निर्धारितमासीत्। आषाढमासस्य सप्तदश दिवसात् त्रिनवत्युत्तरैशतं त्रिनवत्युत्तरैकशतं रूप्यकाणि त्र्यशीति पणकाणि च डीजल इन्धनस्य प्रतिलिटरमितं मूल्यं निर्धारितमस्ति। त्यतः स्वचालित मूल्य प्रणाल्या अनुसारेण नवीन भाटकदर निर्धारितोऽस्ति इति विभागेन ज्ञापितं वर्तते। सूचना संचार मन्त्री डाक्टर विक्रम तिमलसिन्हा निगदति सर्वकारीयैः प्रवक्तृभिः राष्ट्रिय हितं केन्द्रे निधाय सूचनायाः प्रवाह करणीयः। सिंहप्रसादवर्तिनी सूचना संचार मन्त्रालये ह्यः आयोजिते प्रवक्तृ संवाद कार्यक्रमे मन्त्री डाक्टर तिमलसिन्हा विभिन्नानां मन्त्रालयानां सर्वकारीय निकायानां च प्रवक्तारः स्वस्व निकायानां प्रवक्तुः महत्वपूर्णं दायित्वं निर्वहन्तः सन्ति इति अगदत्।